ॐ शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ऋष्यादिन्यासः अस्य श्री सदाशिवसहस्रनामस्तोत्रमन्त्रस्य नारायण ऋषिः श्री सदाशिवो देवता अनुष्टुप् छन्दः सदाशिवो बीजम् गौरी शक्तिः श्री सदाशिव प्रीत्यर्थे जपे विनियोगः ध्यानम् ध्यायेन्नित्यम् महेशम् रजतगिरिनभम् चारुचन्द्रावतंसम् रत्नाकल्पोज्ज्वलाङ्गम् परशुमृगवराभीतिहस्तम् प्रसन्नम् पद्मासीनम् समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिम् वसानम् विश्वाद्यम् विश्ववन्द्यम् निखिलभयहरम् पञ्चवक्त्रम् त्रिनेत्रम् श्रीशिवाष्टोत्तरसहस्रनामस्तोत्रम् स्थिरस्ताणुर्प्रभुर्भीमः प्रवरो वरदोवरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः जटी चम्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः श्मशानवासी भगवान् कचरो गोचरोद्दनः अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेश प्रच्छन्नः सर्वलोकप्रजापतिः महारूपो महाकायो वृषरूपो महायशाः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तर्हितात्मा प्रसादो हयगद्गभिः पवित्रम् च महांश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयम् भूत आदिरादिकरो निधिः सहस्राक्षो विशालक्षः सोमो नक्षत्रसाधकः चन्द्रः सूर्यश्च निःकेतुर्ग्रहो ग्रहपतिर्वरः अत्रिरत्या नमस्कर्ता मृगबाणार्पणो नगः महातपाघोरतपा अदीनोदीनसाधकः संवत्सरकरो मन्त्रः प्रमाणम् परमम् तपः योगियोज्यो महाबीजो महारेता महाबलः सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः दशबाहुस्त्वनिमिषो नीलकण्ठः उमापतिः विश्वरूपः स्वयम् श्रेष्ठो बलवीरो बलोगणः गणकर्ता गणपतिर्दिग्वासा कामयेव च मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः कमण्डलुधरो धन्वी बाणहस्तः कपालवान् अशनीशतघ्नी खड्गी पट्टिशी चायुधी महान् सुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः उष्णीशी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गन्धधारी कपद्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्थलः त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः गजः दैत्यः कालो लोकधाता गुणाकरः सिंहशार्दूलरूपश्च आर्द्रचम्माम्बरावृतः कालयोगी महानादः सर्वकामश्चतुष्पतः निशाचरः प्रेतचारी भूतचारी महेश्वरः बहुभूतो बहुधरः स्वर्भानुरमितो गतिः नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः घोरो महातपाः पाशो नित्यो गिरिरुहो नभः सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः अदर्शणो धर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी बलः मुदितोऽर्थोजितो वरः गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः सुतीक्ष्णदशनश्चैव महाकायो महाननः विश्वक्सेनो हरिर्यज्ञः संयुगा पीडवाहनः तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् विष्णुः प्रसादितो यज्ञः समुद्रो वडवामुखः हुताशनसहायश्च प्रशान्तात्मा हुताशनः उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च शिखीमुण्डी जटिज्वाली मूर्तिजो मूर्धगो बली वेणवीपणवीताली कलिकालकटङ्कटः नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोगमः प्रजागतिर्विश्वबाहुर्विभागः सर्वगोमुखः विमोचनः सुसरणो हिरण्यकवचोद्भवः मेघ्रजो बलचारी च महीचारी सुतस्तथा सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः व्यालरूपो गुहावासी गुहो मालीतरङ्गवित् त्रिदशस्त्रिकालधृत्कर्म सर्वबन्धविमोचनः बन्धनस्त्वसुरेन्द्राणाम् युधिशत्रुविनाशनः सौख्यः प्रसादनो दुर्वासा सर्वसाधुनिषेवितः प्रस्कन्दनो विभागज्ञो तुल्यो यज्ञविभागवित् सर्ववासः सर्वचारी दुर्वासावासवोमरः हैमो हेमकरो यज्ञः सर्वधारीधरोत्तमः लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः मुख्यो मुख्यश्च देहश्च काहलिः सर्वकामदः सर्वकालप्रसादश्च सुबलो बलरूपधृत् सर्वकामवरश्चैव सर्वदः सर्वतोमुखः आकाशनिर्विरूपश्च निपाती ह्यवशः खगः रौद्ररूपोऽंशुरादित्यो बहुरश्मीसु वर्चसि वसुवेगो महावेगो मनोवेगो निशाचरः सर्ववासी श्रियावासी उपदेशकरोकरः मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः पक्षी च पक्षरूपश्च अतिदीप्तो विषम्पतिः उन्मादो मदनः कामो ह्यश्वत्तोऽर्थकरो यशः वामदेवश्च वामश्च प्राग्दश्चिणश्च वामनः सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्टिभागो गवम्पतिः वज्रहस्तश्च विष्कम्भी चमुस्तम्भन एव च वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः वाचस्पत्यो वाचसनो नित्यमाश्रमपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ईशानः ईश्वरः कालो निशाचारी पिनाकवान् निमित्तस्थो निमित्तम् च नन्दिर्नन्दकरो हरिः नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः भगहारी निहन्ता च कालो ब्रह्मा पितामहः चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः बीजाध्यक्षो बीजकर्ता आध्यात्मानुगतो बलः इतिहासः सङ्कल्पश्च गौतमोऽथ निशाकरः दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः अक्षरम् परमम् ब्रह्म बलवच्चक्र एव च नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः बहुप्रसादः सुस्वप्नो दर्पणोऽथस्तमित्रजित् वेदकारो मन्त्रकारो विद्वान्समरमर्दनः महामेघनिवासी च महाघोरो वशीकरः अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः वृषणः शङ्करो नित्यम् वर्चस्वी धूमकेतनः नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः स्वस्तिदः स्वस्ति भावश्च भागी भागकरो लघुः उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनां महापादो महाहस्तो महाकायो महायशाः महामूर्धा महामात्रो महानेत्रो निशालयः महान्तको महाकर्णो महोष्णश्च महाहनुः महानासो महाकम्बुर्महाग्रीवः श्मशानभाग् महावक्षामहोरस्को ह्यन्तरात्मा मृगालयः लम्बनो लम्बितोष्णश्च महामायः पयोनिधिः महादन्तो महादंश्रो महाजिह्वो महामुखः महानखो महारोम महाकेशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः स्नेहनो स्नेहनश्चैव अजितश्च महामुनिः वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः गण्डली मेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामास्य ऋक्सहस्रामितिक्ष्णः यजुः पादभुजो गुह्य प्रकाशो जङ्गमस्तथा अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः नाभिर्नन्दिकरो भावः पुष्करस्तपतिः स्थिरः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तं कलिश्च कालश्च मकरः कालपूजितः सगणो गणकारश्च भूतवाहनसारथिः भस्मशयो भस्मगुप्ता भस्मभूतस्तरुर्गणः लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लः त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः आश्रमस्थः क्रियावस्तो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो त्यम्बुजालः सुनिश्चलः कपिलः कपिशः शुक्ल आयुश्चैव परोपरः गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः परश्वधायुधो देवो अनुकारी सुबान्धवः तुम्बवीणो महाक्रोधः ऊर्ध्वरेताजलेशयः उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोनलः बन्धनो बन्धकर्ता च सुबन्धनविमोचनः स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः बहुधा निन्दितः शर्वः शङ्करः शङ्करोधनः अमरेशो महादेवो विश्वदेवः सुरारिः अहिर्बुद्ध्यो निलाभश्च चेकितानो हविस्तथा अजैकपाश्च कापाली त्रिशङ्कुरजितः शिवः धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा भाता शक्रश्च विष्णुश्च मित्रस्तष्टा ध्रुवोधरः प्रभावः सर्वगोवायुरव्यमासवितारविः उशङ्गुश्च विधाता च मान्धाता भूतभावनः विभुर्वर्णविभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रो निलोनलः बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी कुरु कर्ता कुरु वासी कुरु भूतो गुणौषधः सर्वाशयो गर्भचारी सर्वेषां प्राणिनां पतिः देवदेवः सखासक्तः सदसत्सर्वरत्नवित् कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः सारग्रीवो महाजक्रुरलोलश्च महौषधः सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः सिंहनादः सिंहदंष्टः सिंहगः सिंहवाहनः प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः सारङ्गो नवचक्राङ्गः केतुमाली सभावनः भूतालयो भूतपतिरहोरात्रमनिन्दितः नाहिता सर्वभूतानां निलयश्च विभुर्भवः अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः गान्धारश्च सुवासश्च तपःशक्तो रतिर्नरः महागीतो महानृत्यो हेप्सरो गणसेवितः महाकेतुर्महाधातुर्नैकसानुचरश्चलः आवेदनीय आदेशः सर्वगन्धसुखावहः तोरणस्तारणो वातः परिधीपतिखेचरः संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः नित्य आत्मसहायश्च देवासुरपतिः पतिः युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणोहरः वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापतः शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः समाम्नायो समाम्नायस्तीर्थदेवो महारथः निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः रत्नप्रभूतो रत्नाङ्गो महान्नवनिपानवित् मूलम् विशालो ह्यमृतो व्यक्ता व्यक्तस्तपो निधिः आरोहणोऽधिरोहश्च शीलधारी महायशाः सेनाकल्पो महाकल्पो योगो युगकरो हरिः युगरूपो महारूपो महानागहनो वदः न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः बहुमालो महामालः शशीहरसुलोचनः विस्तारो लवणः कूपः त्रियुगः सफलोदयः त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः बिन्दुविसर्गः सुमुखः शरः सर्वायुधः सहः निवेदनः सुखाजातः सुगन्धारो महाधनुः गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् मन्थानो बहुलो वायुः सकलः सर्वलोचनः तलस्थालः करस्थाली ऊर्ध्वसंहननो महान् क्षत्रम् सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् पवित्रम् त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ब्रह्मदण्डः विनिर्माता शतघ्नीपाशक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गभस्तिद्ब्रह्मकद्ब्रह्मी ब्रह्मविद्ब्रह्मणो गतिः अनन्तरूपो नैकात्मा तिग्मतेजः स्वयम्भुवः ऊर्ध्वगात्मा पशुपतिर्वातरम्हा मनोजवः चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः कर्णिकारमहस्रग्वी नीलमौलिः पिनाकधृत् उमापतिरुमाकान्तो जाह्नवी धृदुमाधवः वरो वराहो वरदो वरेण्यः सुमहस्वनः महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखस्त्रक्षो धर्मसाधारणो वरः चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः कला काष्ठालवामात्रा मुहूर्ताः क्षपाक्षणाः विश्वक्षेत्रम् प्रजाबीजम् लिङ्गमाद्यस्तु निर्गमः सदसद्व्यक्तमव्यक्तम् पिता माता पितामहः सर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् निर्वाणम् ह्लादनश्चैव ब्रह्मलोकः परागतिः देवासुरविनिर्माता देवासुरपरायणः देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरगणाश्रयः देवासुरगणाध्यक्षो देवासुरगणाग्रणीः देवातिदेवो देवर्षिर्देवासुरवरप्रदः देवासुरेश्वरो विश्वो देवासुरमहेश्वरः सर्वदेवमयोचिन्त्यो देवतात्मात्मसम्भवः बुद्धित्रिविक्रमो वैद्यो विरजो नीरजोमरः ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः विबुधोग्रवर सूक्ष्म सर्वदेवस्तपोमय सुयुक्त शोभनो वज्री रासानां प्रभव व्यय गुहकांतो निज सर्ग पवित्रं सर्वपावन शृंगी शृंग प्रियो बभ्रु राजराजो निरामय अभिरामः सुरगणो विरामः सर्वसाधनः ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः सावराणां पतिश्चैव नियमेन्द्रियवर्धनः सिद्धार्थः सिद्धभूतार्थो चिन्त्यः सत्यव्रतः शुचिः प्रतादिपः परं ब्रह्म भक्तानां परमागतिः विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत्।